एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेकपा माओवादी केन्द्रेण उनशताधिक शतद्वय सदस्यायाः केन्द्रीय समितेर्मध्ये षड्त्रिंशदधिक शतद्वयम् केन्द्रीय सदस्याः प्रचिताः सन्ति। माओवादी केन्द्रस्य अष्टम महाधिवेशनस्य अन्तर्गतेन सञ्चाल्यमानेन आन्तरसत्रेण ह्य त्रिंशदुत्तर शतद्वयस्य सदस्यानां निर्णयो विहितः। अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन प्रस्ताविता समान नुपादिक पक्षस्य पञ्चविंशत्यधिक शतम् स्वतन्त्र पक्षस्य एकादशाधिक शतम् चेति कृत्वा षड्त्रिंशदधिक शतद्वयस्य सदस्यानाम् नामावली आन्तरसत्रेण पारितीकृता वर्तते। विभिन्नान् वर्गान् समावेश्य षड्त्रिंशदुत्तर शतद्वयस्य जनानाम् नामसु ह्य उद्घुष्टेषु सत्स्वपि त्रिषष्टेः केन्द्रीय सदस्यानाम् चयनम् अवशिष्टमस्ति। माओवादी केन्द्रेण आन्तरसत्रस्य पूर्वम् पश्चाच्च अस्य सत्रस्य सञ्चालनस्य अवधौ च स्थायी समितेः उपवेशम् आयोज्य केन्द्रीय सदस्यानाम् चयनम् सहमत्या एव विधातुम् भूयो विमृष्टमासीत्। गतदिने एव माओवादी केन्द्रेण अनुशासनायोगस्य अध्यक्षे टंकराई, लेखायोगस्य अध्यक्षे पेशल खतिवड़ा, निर्वाचनायोगस्य अध्यक्षे विष्णुपुकार श्रेष्ठश्च प्रचिताः सन्ति। महाधिवेशनेन केन्द्रीय समितौ प्रचितायं सत्यमपि पोलिट ब्यूरो निकायः स्थायी समितिः पदाधिकारिणश्च केन्द्रीय समित्या चेष्यन्ते। पोलिट ब्यूरो निकायः स्थायी समितिः पदाधिकारिणश्च समावेशी सिद्धान्तस्य आधारेण चेष्यन्ते इति माओवादी केन्द्रम् ज्ञापयति। विधानेन व्यवस्थितानां पञ्चदश पदाधिकारिणां चयनम् अद्य प्रारभ्यते इति माओवादी केन्द्रस्य केन्द्रीय निर्वाचनायोगस्य प्रमुखः विष्णुप्रकार श्रेष्ठः अज्ञापयत्। प्रधानमन्त्री शेरबहादुर कथयति लोकतन्त्रस्य विकासाय विदेह शासनम् मानवाधिकाराश्च सुनिश्चिताः विधातव्याः। विधि न्याय संसदीय विषय मन्त्रालयेन ह्य काष्ठमण्डपे आयोजिते एतद् विक्रमाब्दस्य मानवाधिकार पुरस्कारस्य वितरण कार्यक्रमे प्रधानमन्त्री देववा अवदत् लोकतन्त्रम् मानवाधिकाराः विदेह शासनम् च अन्योन्याश्रितानि सन्ति त्यतः एतेषाम् सुनिश्चिततायै सम्बद्धानां समेषां जनानाम् अतिरिक्ता प्रतिबद्धता आवश्यकी वर्तते। सर्वकारस्य एकल प्रयासेन एव विदेहे शासनं मानवाधिकाराश्च सुनिश्चिताः न भवन्तीति चर्चयन् प्रधानमन्त्री देववा स्वस्वक्षेत्रात् योगदानाय सर्वान् अनुरुणत्। प्रधानमन्त्री देववा विश्वव्यापिनीं मानवाधिकारस्य मान्यतां प्रति नेपालस्य पूर्ण समर्थनम् अस्तीति चर्चयन् अन्तर्राष्ट्रिय विदेहे महासन्देशस्य अनुरूपं विधीनां परिमार्जनाय प्रतिबद्ध व्यक्तवान। कार्यक्रमे विधि न्याय संसदीय विषय मन्त्री दिलेन्द्र प्रसाद बडु अवासत मानवाधिकाराणाम् सम्मानाय संरक्षणाय प्रवर्धनाय च इमे अधिकाराः संस्कार रूपेण विकसनीयाः। कार्यक्रमे ऐसम वर्षस्य मानवाधिकार पुरस्कारोऽसौ कपिलवस्तु जनपदस्य शैलेन्द्र प्रसाद हरिजनाय काष्ठमण्डपस्य शक्ति समूहाय च प्रदत्तो वर्तते। प्रधानमन्त्रिणा नेपाली कांग्रेस दलस्य सभापतिना च शेरबहादुर देवाविदेन ह्य दलस्य नेतारः जीवन बहादुर साई, प्रदीप पौडेलः, कल्याण कुमार गुरूङ च केन्द्रीय सदस्येषु मनोनीताः सन्ति। गत मार्ग शीर्ष मासे सम्पन्नेन चतुर्दश महाधिवेशनेन निर्वाचितः सभापति देववा एतान् नेतृन् केन्द्रीय सदस्य पदे मनोनीतवान्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेश अद्य बसति। ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये अद्य द्विवादने केन्द्रीय कार्य समितेः उपवेशः उपविश्यमानोऽस्तीति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः ज्ञापयति। गत मार्ग शीर्ष मासे सम्पन्नेन महाधिवेशनेन निर्वाचितायाः नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः अयम् द्वितीयोपवेशः वर्तते। ह्यस्तन दिवसाय निर्धारितः प्रतिनिधिसभायाः उपवेश स्थगितो वर्तते। संघीय संसदः महासचिवेन भरतराज गौतमेन ह्य प्रकाशितायां सूचनायां विशेष कारणेन प्रतिनिधिसभायाः उपवेश स्थगितीकृतः इत्युल्लिखितमस्ति। प्रतिनिधिसभायाः अपर उपवेशः अस्यैव पौषस्य द्वाविंशे दिवसे दिवा एकवादने वस्तेति संसद सचिवालयेन ज्ञापितमस्ति। ह्यस्तन दिवसाय आहूतः कार्यव्यवस्था समितेः उपवेशोऽपि स्थगितीकृतोऽस्ति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति नहि भाषणेन अपितु कार्येण राष्ट्रस्य समृद्धये कार्यम् प्रदर्शनीयम्। नेपाल ललित कला प्रतिष्ठानेन प्रकाशितानां त्रयाणां पुस्तकानां विमोचन कार्यक्रमे ह्यो मन्त्री कार्की अगदत् समाजस्य अनुकूल रूपान्तरणे कला साहित्ययोः भूमिका महत्वपूर्णा भवति। संचार मन्त्री कार्की अवदत् राष्ट्रस्य विकास समृद्धयोः दिशि अग्रे प्रवर्धनात् कला साहित्ययोरपि विकासो भवति। सर्वकारस्य प्रवक्ता च मन्त्री कार्की राष्ट्रे स्थितानां सम्पदां सदुपयोगेन राष्ट्रस्य विकासाय जनतानां विकासस्य इच्छायाः पूरणाय च सर्वकारः प्रतिबद्धोऽस्तीति चर्चयन् अगदत् सर्वविधाः न्यूनताः निवार्यन्ते। ह्य एव केशव दुवाडी स्मृति प्रतिष्ठानेन आयोजिते कार्यक्रमे मन्त्रिणा कार्किणा संस्कृतिविदा सत्यमोहन जोशिना च नैपालक पत्रमुद्रायाः संरचनायाः निर्मातुः कलायाः इतिहासस्य च मूर्धन्य व्यक्तेश्च केशव दुवाडी इत्यस्य व्यक्तित्व कृतित्वयोर्विषये प्राध्यापकेन कृष्णदाहालेन लिखितं पुस्तकं विमोचितम् आसीत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड उनविंशतेः ओमिक्रोन नाम्न्याः नूतन प्रजातेः नियन्त्रणाय अतिरिक्त सावधानतया प्रवर्तयितुं स्थानीय स्तराः प्रादेशिक स्तराश्च सर्वकाराः अनुरुद्धाः सन्ति। मन्त्रालयेन ह्य सप्तभ्य एव प्रदेश स्वास्थ्य निर्देशनालयेभ्य सर्वेभ्य जनपद स्वास्थ्य कार्यालयेभ्यश्च पत्रम् लिखित्वा ओमिक्रोन संक्रमणस्य निरोधनाय नियन्त्रणाय च जनस्वास्थ्याय मापदण्डान् जनस्वास्थ्यस्य मापदण्डान् पूर्णतः पालयितुं संकटग्रस्त क्षेत्राणि अन्विष्य परीक्षणस्य परिधिं वर्धयितुं च अनुरुद्धमस्ति। संक्रमणस्य संकटं ध्यात्वा सीमा प्रवेशबिन्दुतः प्रविष्टानां यात्रिणां परीक्षणाय अवशिष्ट टीकाकरणेभ्य लक्षितवर्गेभ्य टीकाकरणाय स्वास्थ्य सुरक्षणावासे एकान्तवासे च निवसतां जनानां निरीक्षणाय च अनुरुद्धमस्ति। अत्रान्तरे नेपाले ह्य अतिरिक्तेषु षोडशाधिक शतद्वय जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। ह्य आराष्ट्रम् अतिरिक्ताः नवाधिक शतद्वयं जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। संक्रमणेन ह्य अतिरिक्तस्य जनद्वयस्य मृत्योः पश्चात् नेपाले ह्यस्तनावधि कोरोना संक्रमणेन मृतानां जनानां समग्र ह्यस्तनावधि समग्र संख्या 11,096 च प्राप्यति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। इति समाचारः।